नमो ज्ञानदीपाय शिवाय ब्रह्मतेजसे कविष्णोहररूपाय नमः श्रीगुरुमूर्तये अज्ञानध्वान्तपटल विध्वंसनदिवाकरान् सच्चिदानन्दबोधैक सुधाम्बुदिकलानिधीन् आदिव्याधिभयग्रस्त प्रपन्नजनरक्षकान् वन्दे बद्धाञ्जलि श्रीमत्परिज्ञानाश्रमान् गुरून् इलापातालनाकस्थ पूजित श्रीशिवेशितुः चरणाम्बुरुहन्यस्त मनोवाक्काय सम्भ्रमान् ईश्वरान् वेद वेदाङ्ग वेदान्तज्ञानिनान्धुरी छात्रवृन्द सुखाधारान् भजे श्रीशङ्कराश्रमान् उपमा भाव महिमार्जित सर्वारि मण्डलान् सारस्वत द्विजवरैराराधित पदाम्बुजान् ऊर्जस्वलान् महामोह ग्राहग्रासैक कर्मणि नमाम्यानन्द रूपान् श्री परिज्ञानाश्रमान् गुरून् एकस्मिन् अद्वितीये च ब्रह्मण्याविष्टमानसान् यमादियोग सम्पत्ति भ्राजमानमुनीश्वरान् ऐश्वर्यादिलार्थानां दायकान् करुणानिधीन् ईडे योगाम्बुदि क्रीडा सक्तान् श्रीशङ्कराश्रमान् ओजस्विनः सुतपसा द्वैताब्धिवडवानलान् स्वाङ्ग्रब्जशरणो धर्तो सौमी श्रीकेशवाश्रमान् औपाधिके कर्मकर्ते मोहितभ्रान्तचेतसाम् समुद्धरणधौरेयान् वन्दे श्रीवामनाश्रमान् अञ्जसा तमसः पारमनायासेन सर्वदा नृपशून्नयतो नौमि कृष्णाश्रमयतीश्वरान् अहं वन्दे मनोवाभ्यां पाण्डुरङ्गाश्रमान् समस्तवैपर्या भक्त्या विविधै भक्तिलक्षणैः वरकञ्ज भवांस्तेषां वन्दे धर्मधुरन्धरान् आनन्दरूपिणः श्रीमदानन्दाश्रम सद्गुरून् खब्रह्माविष्टहृदयान् द्वैतद्वान्तदिवाकरान् प्रशान्तदान्तोपरतान् परिज्ञानाश्रमान् नुमः गरिमा दृश्यते येषां वेदान्तार्थ निरूपणे संविज्ञान तपो दीप्तान् निगमागम पारदान् संविद्देवी समासक्तान् श्रुत्यन्त पथदर्शकान् सद्यो जातान् नमान्यत्र शङ्कराश्रमदेशिकान् भोपराक् स्वामीन् पराक्